इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी इज़राइल देशस्य प्रधानमन्त्रिणा बेंजामिन नेतन्याहु वर्येण सह दूरभाषमाध्यमेन संवादम् अकरोत्। तेन भारत इजराइल देशयोः रणनीतिक सहभागिता दृढीकरणाय चर्चा कृता। उभाभ्याम नेतृभ्याम लोकतांत्रिक मूल्यानां परस्पर विश्वासस्य दूरदृष्टि दृष्टिकोणस्य च आधारे भारत इजराइल रणनीतिक सहभागितां दृढयितुं प्राथमिकतायाः अभिज्ञाताः। उभाभ्याम आतंकवादस्य सर्वाणि रूपाणि अभिव्यक्तिश्च कथमपि नशोढुं स्वीयं दृष्टिकोणं पुनः प्रकटितम्। आतंकवादं निराकर्तुं च प्रतिबद्धतायाः पुष्टिः कृता। उभाभ्यां नेतृभ्यां परस्परं नववर्षस्य शुभकामनाः प्रदत्ताः। देशद्वयस्य नागरिकेभ्यः शान्तेः समृद्धेश्च कामना कृता। वास्तविकः सकलदेशीय उत्पादः जीडीपी 25.2% षड्विंशत्यधिकद्विसहस्रतमे वर्षे 4.7% यावत् वृद्धिं प्राप्स्यति इति अनुमानितमस्ति, यत् गतवर्षे 5.6% आसीत्। वर्तमानस्य वित्तवर्षस्य जीडीपी इत्यस्य प्रथम अग्रिम अनुमानानुसारं वास्तविक जीडीपी वर्तमान वित्तवर्षे 1,200,00,000,00,000 रूप्यकाणां स्तरं प्राप्नुयात् इति अनुमानितमस्ति। 24.5% वर्षे 87.1 लाख रूप्यकाणां जीडीपी इत्यस्य अस्थायी अनुमानस्य अपेक्षासीत्। सांख्यिकी कार्यक्रम कार्यान्वयन मंत्रालय अवदत् यत् सेवाक्षेत्रे उत्कृष्ट वृद्धिः प्राक्कलितस्य वास्तविक वृद्धेः प्रमुखः चालकः अस्ति इति ज्ञायते। देशस्य रिफॉर्म एक्सप्रेस इत्यस्य गतिः निरन्तरं वर्धमाना अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। जीडीपी इत्यस्मिन् प्रतिक्रियारूपेण श्रीमोदी अवदत् यत् एतत् एनडीए सर्वकारस्य व्यापक निवेशेन आग्रहनीतिना च प्रेरितः अस्ति इति। सः अवदत् यत् सर्वकारः समृद्ध भारतस्य स्वप्नं साकारयितुं कार्यं कुर्वन् अस्ति। विदेशमन्त्री डॉ एस जयशंकरः अवदत् यत् फ्रांस देशः भारतस्य प्राचीनतमेषु सामरिक सहभागिषु अन्यतमः अस्ति, तथा च बहुध्रुवीयतायाः कृते प्रतिबद्धः द्वयोः राष्ट्रयोः अस्मिन् स्तरे वैश्विक राजनीतिः स्थिरीकरणाय संयुक्तरूपेण कार्यं महत्वपूर्णम् अस्ति इति। पेरिस नगरे फ्रांस देशस्य विदेशमन्त्रिणा जीन नोएल वेरोट इत्यनेन सह मिलित्वा स्वस्य प्रारंभिक भाषणे डॉ जयशंकरः अवदत् यत् निरन्तर वार्तालापः एव सम्बन्धं पोषणाय महत्वपूर्णः अस्ति। भाजपेति दलस्य राष्ट्रियः अध्यक्षः जेपी नड्डा अद्य श्वः च द्विदिवसीय यात्रायां पश्चिम बंगाल राज्यं गमिष्यति। दलं राज्ये 26.2% वर्षे आगामि विधानसभा निर्वाचनाय सज्जता इतोपि तीव्रतरं करोति। स्वस्य यात्रावधौ श्रीनड्डा दलस्य पश्चिम बंग विभागस्य कोर समिति सभायाः आयोजनं करिष्यति, तथा च अनेकेभ्यः मण्डल स्तरीय दलनेतृभिः सह संवादं करिष्यति। सः भाजपा चिकित्सक प्रकोष्ठस्य सदस्यैः सह अपि मेलनं विधास्यति। श्वः श्रीनड्डा स्वकीयस्य केन्द्रीय मन्त्रालयस्य आधिकारिक सभासु भागं ग्रहीष्यति। सूत्रानुसारं भाजपेति दलस्य राष्ट्रिय कार्यकारी अध्यक्षः नितिन नवीनः अपि शीघ्रमेव पश्चिम बंगालस्य यात्रां करिष्यति। तमिलनाडु राज्ये पीएमके इति पट्टाली मक्कल काची इति दलं तमिलनाडु निर्वाचनात् प्राक् राज्यस्य राष्ट्रिय लोकतांत्रिक गठबन्धने एनडीए सम्मिलितः। AIADMK दलस्य सचिवः एडापाडी पलानीस्वामी चेन्नई नगरे वार्ताहर सम्मेलने पीएमके प्रमुखेन अम्बुमणि रामदास इत्यनेन सह एनडीए मध्ये पीएमके इत्यस्य समावेशस्य घोषणाम् अकरोत्। आगामि 26.2020 SAFF फुटसल चैंपियनशिप स्पर्धायाः कृते भारतीय पुरुष महिला दले बैंकॉक नगरे सम्प्राप्तवन्तौ इति वार्ताः।